सहनावतु सहनौ भुनक्तु
सहवीर्यं
कर्वावहै
सहवीर्यं कर्वावहै
तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः.
हरिः ओम्
हरिः ओम्
गुरुभ्यो नमः नमः
गुरुभ्यो नमः.
वयं फ्यूचर् काले कालविषये पठितवन्तः किल. We study about future cause, future tense. Did we study about Rit Nakara, Bhavishyat Kalaha?
We just start to learn something like Patishyati, Kibati.
Aam Bhavishyat.
Bahu Vachnam.
Bhavishyat Kalaha.
सिङ्गुलर् लैक् पठिष्यति पश्यति कश्यति गन्धिष्यति करिष्यति भविष्यति लज्जति.
बहु समीचीनं महोदय, बहु समीचीनम्. अद्य वयं बहुवचनं भविष्यकालः लिट् लकारः इति मन्यते शब्दः तस्य विषये पठ अध्ययनं कुर्मः अभ्यासं कुर्मः. गीतवान् गीतवती. अहं गाया अहं गायामि वयं गायामः. श्रूयते वा?
नो पिक्चर्, नो पिक्चर् मेडम्.
The slides.
Bhagini, your voice is coming very low.
I'm sharing the slides. Can you hear me now?
Yeah, we can hear you.
We can hear no slides yet.
Yes, okay. Let's see. Let me know when you can see the slides. Are you able to see the slides now?
Yes. It has started coming, yes.
Okay, that's great. Then, let's see. So, we all know about Lirit Nakaraha, Bhavishyat Kalaha. Mohate Uktuvan. Sriyashri. Mohate Uktuvan. पक्ष्यति पचति पक्ष्यति क्षिपति क्षेप्स्यति.
न
अहम् उक्तवती, महोदय उक्तवान् समीचीनम्. अहं गायामि वयं गास्यामः. गायामि वयं गास्यामः. One second.
पश्यामः पश्यामः
अहं पश्यामि अहं पश्यामि वयं
पश्यामः
वयं पश्यामः
अहं धावामि वयं
धावामः
धावामः
धावामः अहं पठामि
पठामः
वयं पठामः
अहं पठिष्यामि
पठस्यामः राइट
भगवती पठामि अहं पठिष्यामि
पठिष्यामि
वयं भविष्यामः
अहं धावामि कृपया ध्यानेन शृणन्तु अहं धावामि वयं धावामः अहं धाविष्यामि वयं
धाविष्यामः
अहं खादामि
वयं भावामः
अहं खादामि वयं
खादामः
खादिष्यामि अहं खादिष्यामि वयं खादिष्यामः
उक्तवती अहं खादामि वयं
खादामः
खादामः
खादामः अहं धावामि
धावामः वयं धावामः
अहं धाविष्यामि
वयं भविष्यामः
वयं धाविष्यामः अहं रामः कृपया बहुवचनं परिवर्तनं कुर्वन्तु रामः श्वः नगरं गमिष्यति रामः नगरं गमिष्यति
रामः श्वः नगरं गमिष्यामः
रामः नगरं गमिष्यति रामः श्वः नगरं गमिष्यति रामः एकवचनं रामः बहुवचनं श्वः नगरं गमिष्यति पूर्वमेव गमिष्यन्ति रामः श्वः नगरं गमिष्यति निर्धनः कष्टम् अनुभविष्यति निर्धनः कष्टम् अनुभविष्यति
निर्धनाः कष्टम् अनुभविष्यन्ति.
समीचीनं भगिनि. निर्धनाः कष्टम् अनुभविष्यन्ति. दुष्टः दुष्टः अस्ति. दुष्टः देवः दुष्टः देवः देवः दुष्टं दण्डयिष्यति. देवः दण्डयिष्यति. देवः दुष्टं देवी दण्डयिष्यति.
देवाः दुष्टं दण्डयिष्यन्ति.
देवाः दुष्टं दण्डयिष्यन्ति. समीचीनम्. अन्येकं वाक्यमस्ति. बालकः पुस्तकं पठिष्यति. बालकः पुस्तकं पठिष्यति.
बालकाः पुस्तकं पठिष्यन्ति.
ओके. पुस्तकानि
या
पठिष्यन्ति.
पुस्तकानि पठिष्यन्ति और पुस्तकं पठिष्यति. पठिष्यन्ति. एकं पुस्तकम् अपि पठितुं शक्नुमः. बहु पुस्तकानि बहूनि पुस्तकानि अपि पठितुं शक्नुमः. द्वयं वाक्यद्वयं शुद्धमेव सन्ति. अस्ति वाक्यद्वयम्. भवती भविष्यति. भविष्यामः. भवती भविष्यति. भवामः. भविष्यामः. लिखति लिखिष्यति. लिखति लिखिष्यति. लिखिष्यन्ति. लिखामः लिखिष्यामः. करोति करोति एक क्रियापदमस्ति. करिष्यति करोति करिष्यति. करोति कुर्वन्ति. क्षम्यतां. करोति करिष्यन्ति. करोति कुर्वन्ति. बहुवचनं कथमस्ति? कुर्वन्ति करिष्यन्ति. करिष्यन्ति. करिष्यति करिष्यन्ति. बहुवचनं करिष्यन्ति. वर्धते वर्धिष्यते. वर्धिष्यन्ते. मोदते
मोदिष्यन्ते.
मोदिष्यन्ते. स्पर्धे मोदिष्यन्ते. स्पर्धते स्पर्धते.
स्पर्धिष्यन्ते.
स्पर्धिष्यन्ते. यतते यतिष्यते. यतिष्यन्ते. अन्य एकं लट् लकारः त्रिषु लिङ्गेषु. एकं क्रीडा अस्ति. अस्तु. क्रीडा भविष्यत् कालः. क्रीडा वयम् अनन्तरं कुर्मः. बालकः पठति. कालपरिवर्तनं भविष्यत् कालपरिवर्तनं कुर्वन्तु बालकः पठति
बालकः पठिष्यन्ति
पठिष्यति
सोरि पठिष्यति
प्रथमम् एकवचनमेव एकवचने एव कुर्वन्तु अनन्तरं बहुवचने कुर्मः करिष्यामः बालकः पठति बालकः
पठिष्यति
बालकाः कोलाहलं कुर्वन्ति अन्य कोऽपि वदतु रमेश रामस्वामीजी
बालिका कोलाहलं करिष्यामि दादवन् इस् बालिकाः
Krishna, you have to mute your diet. Too much noise.
Okay. Pachati. Pachati. Pakshyati. Pakshyanti. Shipati. Shepsyati. Shepsyanti. इति अहम् एकमेकं क्रियापदं वदामि कृपया एकवचनं बहु लिट् लकारः अन्ये एक बहुवचनं लिट् लकारः इति शब्दद्वयं वदन्तु सर्वे अहम् एकमेकं पृच्छामि कृषति अपर्णा भगिनी कृषति अन्म्यूट् करोतु कृषति
यस् भगिनि कृषति
क्रक्ष्यति क्षम्यतां क्रक्ष्यति कृषति क्रक्ष्यति
सारी भगिनि कान्ट् हियर् यू युर् वाय्स् इस् वेरि लो
केन् यू हियर् मी नौ
या या बेटर् मच् बेटर् मच् बेटर्
Okay, so I will say a word, you say,
okay.
I will only be using third person, so not,
okay.
We are not talking about Pratma Uttam Pushyaha yet.
Okay.
Like, Pachati, Pakshyati, Pakshyanti. So, Shabda Dvayam Vadantu Sarve. Pachati, Pakshyati, Pakshyanti. Shipati.
क्षिपति
क्षेप्स्यति
क्षेप्स्यन्ति
अस्तु रामस्वामी महोदय कृषति
निशति निश्यन्ति
क्रक्ष्यति क्रक्ष्यन्ति क्रक्ष्यति क्रक्ष्यन्ति धरति
क्षति प्रक्षन्ति
कृष्णन् महोदय
धरति धर्यन्ति
धरति
धरति धरिष्यति धरिष्यन्ति
समीचीनं वहति अमित् महोदय
वहिष्यति वहिष्यन्ति
वहति वक्ष्यति वक्ष्यन्ति
वक्षयति वक्षयन्ति ओके
अस्तु धन्यवादः वहति क्षम्यतां सीव्यति सीव्यति अपर्णा भगिनी
सेवयसि सेव इस् इट् सेवयसि करेक्ट्
सीविष्यति
सीविष्यति सीविष्यन्ति
सीव्यति सीविष्यति सीविष्यन्ति अस्तु रामस्वामी महोदय सो ऐ एम् जस्ट् गोयिङ्ग् इन् दिस् लैन् देट् यु केन् सी आन् द स्क्रीन् सो एव्री टैम् यु केन् अन्म्यूट् अण्ड् देन् आफ्टर् स्पीकिङ्ग् म्यूट् यु सेल्फ़् सो आफ्टर् रामस्वामी महोदय कृष्णन् महोदय देन् अमित् महोदय बेक् अगेन् अपर्ण भगिनी लैक् देट् सो अर्चति
अर्चति अर्चष्यति अर्चष्यन्ति
अर्चति अर्चिष्यति अर्चिष्यन्ति अर्जयति
अर्चिष्यन्ति
कृष्णन्
अर्जयति
अर्जयति
अर्जयति अर्जयस्ति अर्जयन्ति
अर्जयति अर्जयिष्यति अर्जयिष्यन्ति
अर्जयिष्यन्ति अर्जयिष्यन्ति
कर्तयति अमित् महोदय
क्रिष्यति क्रिष्यन्ति
कर्तयति
करिष्यति करिष्यन्ति
नो कर्तयति
ओ कर् कर्तयति कर्तिष्यति कर्तिष्यन्ति
भगिनि कथयति
sorry bhagini I didn't get the word
kathayati kath kathayati katha
kathayati okay kathishyati kathishyanti
kathayishyati
kathayishyati kathayishyanti
so ramaswami mode pujayati
pujayashyati पूजयिष्यन्ति
पूजयति पूजयिष्यति पूजयिष्यन्ति कथयति कथयिष्यति कथयिष्यन्ति पूजयति पूजयिष्यति पूजयिष्यन्ति कृष्णन् महोदय चोरयति
चोरयिष्यति
चोरयति चोरयिष्यति
चोरयिष्यन्ति
चोरयिष्यन्ति
अर्पयति
अमित् महोदय
अर्पयति अर्पयति अर्पयिष्यति
अर्पयिष्यन्ति अर्पयिष्यन्ति After speaking, if you are not speaking, always mute. Otherwise, I end up doing mute for everyone. Okay, next is Namati, Namati, Namsyati. Namsyanti. Namati, Namsyati, Namsyanti. Chinoti. अपर्णा भगिनी चुनौती चुनौती भिन्नः अस्ति
चुनौती चुनिष्यति चुनिष्यन्ति
चुनौती चि इ अस्ति चि चुनौती चेष्यति
चेष्यति
चेष्यन्ति गायति
गायति
गास्यति
गायष्वन्ति नो गीतयिष्यति
गायति
गायति गायति
गायति गास्यति गास्यन्ति जिघ्रति जिघ्रति भिन्ना अस्ति लीव दैट वन फॉर नाउ रक्षति कृष्णन् महोदय रक्षति
रक्षस्यति रक्ष्यन्ति
रक्षति रक्षि
रक्षेस्यति रक्षयन्ति
धन्यवादः अमित् महोदय रक्ष्यति रक्षति
रक्षति रक्षति रक्षिष्यति रक्षिष्यन्ति
समीचीनम् प्रेरयति नेक्स्ट् पन्ना भगिनि प्रेरयति
प्रेरिष्यति प्रेरिष्यन्ति
समीचीनम् दर्शयति रामस्वामी महोदय
Can you say the word again, madam?
Darshayati.
Darshayati. Darshayanti.
Darshayati. Darshayati. Darshayanti.
Darshayanti.
Darshayanti. Darshayati. Here is the... चोरयति य अस्ति चोरयति पूजयति य अस्ति कथयति य अस्ति तत्र सर्वे कथयति कथयिष्यति पूजयति पूजयिष्यति चोरयति चोरयिष्यति रचयति रचयिष्यति दर्शयति दर्शयिष्यति तत्र सर्वे य अस्ति तत्र ईष्यति कथयति कथयिष्यति पूजयति पूजयिष्यति चोरयति चोरयिष्यति अर्पयति अर्पयिष्यति रचयति रचयति रचयिष्यति प्रेरयति प्रेरयिष्यति दर्शयति दर्शयिष्यति सो वेन् देर् इस् इ क्षिप्ति क्षिप्ति क्षेप्स्यति क्षिप्ति क्षेप्स्यति अन्यत् एकं क्षिप्ति अन्ये similar copy anya ekam likhati lekhishyati shipati shepsyati likhati lekhishyati chintam likhati likhati katam bhavati likhati lekhishyati likhati lekhishyati
chintayati chintayishti
चिन्तयति
चिन्तयिष्यति
नेक्स्ट् वट् वि विल् डु वि विल् So now we have some pachati pakshyati shipati kshepsyati keep on repeating that कृषति कर्ष्यति कृषति द्रक्ष्यति भजति भक्ष्यति mute again. So let's see if there are any slides that we can look into. Okay, this is a nice one. So we are reading this कॉलम भविष्यत् पठति पठिष्यति क्रीडति क्रीडिष्यति भवति भविष्यति अस्ति ओसु भविष्यति लिखति लिखिष्यति खादति खादिष्यति मिलति मिलति रिमेम्बर मिलति ई बिगिनिंग में इस मेलिष्यति हसति हसिष्यति निंदति निंदिष्यति पतिष्यति पतति पतिष्यति नयति नेष्यति आनयति आनेष्यति वदति वदिष्यति स्मरति स्मरिष्यति गच्छति आगच्छति आगमिष्यति इच्छति एषिष्यति उत्तिष्ठति उत्थास्यति पिबति पास्यति सो व्हाट वी कैन डू अपर्णा भगिनी कैन यू जस्ट रीड दिस this column first and then the
yeah.
column just very
pathati.
Very quickly
okay pathati pathishyati kridati kridishyati bhavati bhavishyati asti bhavishyati likhati lekhishyati khadati khadishyati milati melishyati continue okay hasati hasishyati nindati nindishyati पतति पतिष्यति नयति नेष्यति आनयति आनेष्यति वदति वदिष्यति स्मरति स्मरिष्यति गच्छति गमिष्यति आगच्छति आगमिष्यति इच्छति एष्यति उत्तिष्ठति उत्थास्यति पिबति पास्यति
धन्यवादः नाउ रामस्वामी महोदय कैन यू रीड ऑल ऑफ दैट प्लीज
पठति पठिष्यति क्रीडति क्रीडिष्यति भवति भवतिष्यति
भविष्यति
अस्ति भविष्यति लिखति लेखिष्यति खादति खादिष्यति मिलति मेलिष्यति हसति हसिष्यति
नेक्स्ट
यू रोल इट अप मैडम
देन दैट
ओके वेयर इज इट ओके
हा सेकंड
ओके निन ओके निंदति निंदिष्यति पठति
पठति
पठिष्यति नयति पतति पतिष्यति नयति नेष्यति आनयति आनेष्यति वटति वटिष्यति स्मरति स्मरिष्यति गच्छति गामिष्यति आगच्छति आगमिष्यति इच्छति ईष्यति गशिष्यति
इच्छति एषिष्यति एषिष्यति
इच्छति इस् एषिष्यति ओके अतिष्ठति उत्तिष्ठति उत्तिष्ठति उद्भाष्यति
उत्थास्यति
उद्भाष्यति पिबति पाष्यति.
Samichnam, dhanyavada. Krishnan Mohde, can you read all that please? Very, very quickly.
Yes. Patati, patishyati. Kridati, kridishyati. Bhavati, bhavishyati.
Oh,
Kshamata. Asti, bhavishyati. Likati, libishyati.
Lekishyati.
Kridishyati. Vadati, lekishyati. Khadati, khadishyati. Milati, melishyati. Isati.
Hasati.
Asati. Asati, asishyati. Slightly bigger words. Yes. Vadati. Milati. You are changing it fast. Now it's all right. No. Yes.
Here, Likati.
Asti. Abhishyati. Likati. Likishyati. Vadati. Khadati, khadishyati. Milati, melishyati. Hasati, asishyati. Nidati, nidishyati.
Nindishyati.
Nidati, nindishyati. Padati, padishyati. Nayati, neyati.
Neshyati.
Aneshyati. 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 Vadati, no, let's change it fast. Yes, right, right. Anayati, aneshyati. Vadati, vadishyati.
Vadishyati.
Smarati, smarishyati. Gacchati, gavishyati. Agacchati, agavishyati.
Gacchati.
Gavishyati.
Agacchati.
Agavishyati.
Icchati.
Icchishyati.
Eshishyati.
Echati. Eshishyati. Uttishtati. Uttasyati. Uttasyati. Pibati. Pashyati. Then further.
Ramaswamy Mohde, can you, next, who is next? Amit Mohde.
Okay. Patati, patishyati, kridati, kridishyati, bhavati, bhavishyati, asti, bhavishyati, likati, lekishyati. खादति खादिष्यति मिलति मेलिष्यति हसति हसिष्यति निन्दति निन्दिष्यति पतति पतिष्यति नयति नेष्यति आनयति आनेष्यति वदति वदिष्यति स्मरति स्मरिष्यति गच्छति गमिष्यति आगच्छति आगमिष्यति इच्छति एषिष्यति उत्तिष्ठति उत्थास्यति पिबति पास्यति. Madam, one question. Is it easier if we remember the root form of the verb? Like,
I think Mm-hmm.
Or should we just by heart this? Patati, patishati, likhati, likishati.
So, but for example, if I ask you, 12 times 6? What is 12 times 6?
72.
Did you calculate by adding 12, 12, 12, 12 or multiplied it? Or you just remembered by heart?
Just remembered.
Because you remember the tables in your childhood.
Correct, correct.
So if you remember your roots here and then try to calculate while you're speaking, would that work?
Oh, that will take... Okay, got it.
Yeah. The same way. You will learn about the rules when we... first we memorize the tables, then we learn about multiplication and all that.
Okay. Understood.
So, little closer there, when likhati, likhishyati, milati, melishyati, you can see that E is going into A.
Yeah.
And there is some sort of rules are going when you are saying, here we don't have choryati, when there was like ya, every time choraishyati, so EE was coming here.
Okay.
And we have more here, but I think it's enough for now.
Okay.
We have more here.
Can you share this list later?
Yes, definitely. I will
share
that.
Thank you. Thank you.
I've been a little bit busy.
No, it is having both future, past and present. It is very useful slide. Very useful slide.
I will definitely share that. And then
slide, madam. It will be very grateful to us.
Yes.
Thank you. Thank you.
And if just in case, I will I will definitely email. But here is your. I'm also putting this link into your chat window.
Actually, we can download it directly.
Because you
are already uploading the slide. And all we need to do is click on the slide, the same slide, and then download the PDF.
Yes, exactly. So now what we have to do, we've already seen likhati becomes lekhishyati, milati, melishyati, nindati, nindishyati, patati, patishyati, nayati, neshyati, anyati, anishyati. So now what I would just to get those words into your heart. So you have to say it very quickly. Patati, patishyati, kridati, kridishyati, bhavati, bhavishyati, asti, bhavishyati, likhati, lekhishyati, khadati, khadishyati, milati, melishyati, hasti, hasishyati. Let's just focus on this table only. Patati, patishyati, kridati, kridishyati, bhavati, bhavishyati, asti, bhavishyati, likhati, lekhishyati, khadati, khadishyati, milati, melishyati, hasti, hasishyati. So if you can say that, patati patishyati patishyanti, kridati kridishyati kridishyanti, bhavati bhavishyati bhavishyanti, asti bhavishyati bhavishyanti, likhati likhishyati likhishyanti, khadati khadishyati khadishyanti, milati melishyati melishyanti, hasti hasishyati hasishyanti. So can somebody volunteer to do it? Not slowly, but fast.
Can I try?
Can I try, Bhagini?
Yeah, I will give everybody chance. It's only four of us, so it's fine. Just on this page, can you do Amit Mode, then Aparna Bhagini, then Ramaswamy Mode, then Krishna Mode, very, very quickly.
Okay.
So when others are doing, just listen very carefully. Okay, Mode.
Patati, patishyati, patishyanti, kridati, kridishyati, kridishyanti, bhavati, bhavishyati, bhavishyanti, asti, bhavishyati, bhavishyanti, likhati lekhishyati lekhishyanti, khadati khadishyati khadishyanti, milati melishyati melishyanti, hasati hasishyati hasishyanti.
Very good. Now, Padma Bhagini, very quickly.
Okay. Patati patishyati patishyanti, kridati kridishyanti kridishyati kridishyanti, bhavati bhavishyati bhavishyanti, asti bhavishyati bhavishyanti, likhati lekhishyati lekhishyanti, khadati khadishyati khadishyanti, मिलति मेलिष्यन्ति मेलिष्यन्ति मेलिष्यति मेलिष्यन्ति हसति hasishyati hasishyanti.
Very good. Okay, now next was Ramaswamy Mohode.
Padati padishyati padishyanti, kridati kridishyati kridishyanti, bhavati bhavishyati bhavishyanti, asti bhavishyati bhavishyanti, likati lekashyati lekashyanti, khadati khadishyati khadishyanti, milati melashyati melashyanti, hasati hasishyati hasishyanti.
Very good. Now Krishnan Mohode, very very quickly.
Padati padishyati padishyanti, kridati kridish क्रीडिष्यति क्रीडन्ति, भवति क्रीडिष्यन्ति, भवति भविष्यति भविष्यन्ति, अस्ति भविष्यति भविष्यन्ति, लिखति लेखिष्यति लेखिष्यन्ति, वदति खादति खादिष्यति खादिन्त्यति खादिष्यन्ति, मिलति मिलिष्यति मेलिष्यति मेलिष्यन्ति, हसति हसिष्यति हसिष्यन्ति.
Okay, now everyone has done it. Okay, so now is let me remove. Okay, so now what I'm going to do, it's not what I planned. So I wanted to, okay, so what I will do, I will say the word and you say the ekvachan and bahuvachan without looking at the slides. So I will trust you that you are not looking at the slides, and all of you can shout
which
out.
Which column?
Just
which lakara?
Bhavishyat kala only.
Okay.
So we'll just do the Bhavishyat Kal first, and then we will do others in a minute after that. So I will believe that nobody is looking at the slides, and everybody can close their eyes and just unmute your mics. All of you can say it all together. Patiti.
Patishyati. Only one or few?
No, both. Patishyati, patishyanti.
Okay, patishyati patishyanti,
kridati
kridishyati kridishyanti.
I only heard two voices. I did not hear from Ramaswamy and Krishnan Mohode.
Kridishyati kridishyanti.
Okay, bhavati
bhavishyati
bhavishyanti. Krishna Mohode is not, I can't hear him.
Yes madam.
Yeah all please join together. Asti
bhavishyati bhavishyanti.
Likti
lekhishyati.
Just say two words only, not three. Lekhishyati lekhishyanti. I'm saying khadati
khadishyati
khadishyanti.
Milati
melishyanti
melishyanti. Hasati hasishyati hasishyanti.
Nindati
nindishyati
nindishyanti
nindishyati nindishyanti.
So now we have studied about pathatu. Remember that balakah?
Yes.
Pathatu. Balakah pathatu. Then we studied about Ram Gita pathitvati, Ramah pathitvan. Ramah patishyati, Ramaha patitva kridati. Ramaha patitva kridati. Ramaha patitum gachati. Balak Ramaha Balakaha Patitum Patshalam Gachati. Leave that one. Just Patitu Ramaha Balakaha Patitu Balakaha Balaha Patitwan Balika Patitwati Balakaha Patishyati Balikaha Patitwa Kridati. So what? Unmute please. Dhanyavadah. So now what we can do, we are saying just use one word like Ramaha or Balakaha or Sureshaha, pulling Shabdaha only. Balakaha Patati. Balakaha Patitvan. Balakaha Patishyati. Balakaha Patitva Kridati. Then Balakaha Kridati. Balakaha Kriditvan. Balakaha Kridishyati. Balakaha Kriditva Bhavati. Bhavati na sammek. Balakaha Kriditva Likhati. Then next one is you can choose Balakaha Likhati, Balakaha Likhishyati, Balakaha Likhitva Khadati, Balakaha Khadati, Balakaha Khadishyati, Balakaha Khaditva Milati, Balakaha Milati, Balakaha Melishyati, Balakaha Militva Hasati, Balakaha Hasati, Balakaha Hasishyati, Balakaha Hasitva Nindati. Avgatam?
Agini, what is the meaning of Patitva and Patitum? What is the difference?
Very after good question.
Action.
After doing one, when you have two actions in one go, like after doing, I am cooking, after cooking I will eat. Aham paktva khadami. That after cooking I will eat. After cooking I eat. Not I will eat, I eat. Or patitva khadishyami. That after cooking I will eat. So we did not do tva. Okay, I thought we didn't done that. Let's see. This one. Maybe that need more practice. I thought we've done that. Okay, we have not done that taha either. Yadatada. Jadaha. Okay. So I don't know what we have done last time. We have definitely done all that, right?
No, we have done
Bhavishyatkal we've done. We have not done
yadi tense, we have done the future tense, we have done the present tense, and then we have done the request or the command.
Okay, we've done that, okay.
Only four.
So now we are doing the tva. Okay.
Ah,
I think
right.
That would be a good one.
Fifth one.
Fifth one. So Balakaha Patitva Kridati. Balakaha Kriditva Patati. Balakaha Likhitva Khadati. Balakaha Khaditva Likhati. Balakaha Militva Hasati. Balakaha Hasitva Milati. Like that we can do. Any we'll start with Krishnan Mohadev this time.
Balakaha paditva kridati. Balakaha kriditva bhavati. Balakaha likitva asti. Balakaha likitva khadati. Balakaha khaditva मिलति बालकः मिलित्वा हसति बालकः हसित्वा पठति
Very good. Now, Amit Modi, let's move to the next page. So, you can make sentences with this.
Okay. Balak.
Oh. Sorry.
Okay. Hmm? Yeah. Balakaha hasitva nindati. Balakaha ninditva patati. Balakaha patitva nayati. बालकः नीत्वा आनयति बालकः आनीय वदति बालकः उक्त्वा स्मरति बालकः स्मृत्वा गच्छति बालकः गत्वा आगच्छति बालकः आगत्य हसति
समीचीनम् You've seen that some there is ya, some there is va. Gatva,
yeah.
smritva, nitva, patitva, ninditva, hasitva. But when there is agachati, then is agatya. When is anayati, then is aniya. So we will see more of that. So उत्तिष्ठति उत्थाय आगच्छति आगत्य सो विल सी इन अ मिनट हु थिंक रामस्वामी महोदय कैन यू डू दिस पेज देयर इज दिस पेज रामस्वामी महोदय अस्ति वा
बालकः त्यजति बालकः त्यक्त्वा पश्यति त्यक्त्वा पश्यति बालकः दृष्ट्वा उपविशति
उपविशति
बालकः उपविशति बालकः उपविश्य ददाति बालकः दत्त्वा पृच्छति बालकः पृष्ट्वा क्रीणाति बालकः कृत्वा जानाति बालकः जात्वा
ज्ञात्वा
निन्द्रति
जानाति ज्ञात्वा
ज्ञात्वा ओके बालकः ज्ञात्वा निन्द्रति
निद्राति
निन्द्राय करोति Oh, no. After sleeping, he probably wakes up. Okay.
Pashyati.
Balakaha nindraya.
Pashyati.
Krinati.
Hmm.
Huh. Oh, pashyati.
Oh, khadati. Okay. Next, Amit Modi.
Okay. Definitely I can do. Yeah.
Oh, you've done that. Okay, sorry.
Yeah, I think Aparna Bhagini.
Aparna Bhagini, next.
Yes, Bhagini, this same page?
You can do this page. Yeah, I think...
This page? Yeah. Okay. Balakaha svikritya shrunoti. Balakaha shrutva grihanati. बालकः गृहीत्वा रोदिति बालकः रुदित्वा शक्नोति बालकः शक्त्वा पूजयति बालकः पूजयित्वा प्रेषयति बालकः प्रेषयित्वा प्रक्षालयति बालकः प्रक्षाल्य स्थापयति बालकः स्थापयित्वा सूचयति बालकः सूचयित्वा क्रीडति
So very good. So now we, all of us have done. Is it anybody left?
Madam left. Hello?
So, hello? Hello, Krishnan Mohde?
Yes, I have to read, madam. I have to get a chance.
Okay, sure.
Shall I read?
Yes, let me go to this page.
Okay. Hello, sir.
Just one. Yeah.
Okay.
Okay. So I think I started off with you, but it's okay. So you can make few sentences.
Yes. Balakah militva hasati. Balakah hasitva nindati. Balakah ninditva patati. Balakah paditva nayati. Balakah आनयति बालकः आनीय आनीय वदति बालकः आनीय वदति बालकः उक्त्वा स्मरति बालकः स्मृत्वा गच्छति ओके
ओके धन्यवादः So now, like this column, if we look at it, patitva, kriditva, bhutva, bhutva, likitva, khaditva, militva, hasitva, ninditva, patitva, nidva, aniya, uktva, smritva, gatva, agatya. Then smritva gatva ishtva ichti ishtva utthaya pitva tatva drishtva upavishya datva pishtva kritva gyatnyatva nidraya kritva svikritya shrutva grihitva rutitva shatva pujaitva preshaitva prakshalaya स्थापयित्वा सूचयित्वा तर्जयित्वा आहूय सो वेन् एवर् देर् इस् समथिङ्ग् कोल्ड् उपसर्गः यु मस्ट् हव् हर्ड् अबौट् उपसर्गः एनिबडि नोस् अबौट् उपसर्गः उपसर्गस् आर् लैक् प्र समथिङ्ग् देट् यु एड् टु ए वर्ड् to change its meaning like we add a gachati a gachati gachati prati gachati or uttaram dadati prati uttaram dadati so pra a ni nayati nitva So sometimes there is a over here you've seen like preshyati preshaitva but prakshalayati pra is there so prakshalaya just remember that some of the words will change into ya prakshalaya prakshalaya ahuya prakshal upavishya Up is also a upsarga, that's why upvishya, just remember that. And aniya, anitva. So, now look, without looking, can you make a sentence? Balakaha nagram gatva bhojanam khadati. So, I want... Tva and then extra action. Nagram gatva balakaha paathshalam gatva pathati. Mata patrani prakshalaya pachati. Mata patrani prakshalaya pachati. Mitram हसित्वा लिखति मित्रं हसित्वा दुष्टः निन्दित्वा हसति माता स्मृत्वा आहूयति स्मृत्वा आहूयति नेता नीत्वा वदति देन् गीता क्रीत्वा शाटिकां धारयति क्रीत्वा आफ्टर् बायिङ्ग् क्रीत्वा शाटिकां धारयति बालकः उपविश्य भोजनं खादति धनं दत्त्वा रामः स्मरति प्रश्नं पृष्ट्वा उत्तरं ददाति सो विल् से टू सेण्टेन्सेस् ईच् वि केन् स्टार्ट् वित् अमित् महोदय दिस् टैम् टू सेण्टेन्सेस् प्लीस् any you can use any two kriya padani
Rama nidraya upavishyati
रामस्वामी महोदय
बालकः भोजनं खादित्वा जलं पिबति
Very good. Then, Krishnan Mohan.
Balakaha Nagaram Gachatva Kadati.
Gatva, not Gachitva.
Gatva, Nagaram Gatva Kadati.
Kadati. Aparna Bhagini?
Panditaha Vedam Gyatva Shlokam Vadati.
Very good. Now, second sentence. Amit Mohde?
Mata Pakvam Aham Khadati.
No, Aham Tatra Nagati.
Ah, okay, okay. Mata Pakvam Khadati.
Mata Pakva Khadati.
It cooks and eats. Yeah.
Here, same person is doing two actions, not two people. Okay, next, Ramaswamy Mohde.
Balakaha kridatva snati.
Kridatva
snati.
Very good. So next, Krishnan Mohde.
बालकः पठित्वा भोजनं खादति बालकः पूजां पुष्पां करोति
बालकः
पूजां कृत्वा पुष्पं पुष्पं ददाति अदर्वैस् वाट् टु से फार् दे आर् प्लकिङ्ग् द फ्लवर्स् फ्रोम् द ट्री
balakah chunoti 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 like we pick we select those ones chunoti or or you can say balakah pujam kritva pushpani arpayati
pushpani arpayati pushpani arpayati right
pushpani arpayati okay so now Aparna Bhagini last one
okay aham pujam kritva sanskritam pathami
अहं पूजां कृत्वा संस्कृतं पठामि अहं संस्कृतं पठित्वा किं करोमि निद्रां करोमि अहं संस्कृतं पठित्वा निद्राम् अनुभवामि अहं श्लोकान् श्रुत्वा आनन्दम् अनुभवामि अहं श्लोकान् श्रुत्वा अहं श्लोकान् ज्ञात्वा गायामि अहं बालकं श्रुत्वा अहं बालकं श्रुत्वा उत्तरं ददामि अध्यापकाः छात्रान् श्रुत्वा श्रुत्यति
मैडम् इस् इट् करेक्ट् अहं श्लोकम् अर्थ्वा संस्कृतं पठति
संस्कृतं
पठति ऐ एम् लर्निङ्ग् रीडिङ्ग् संस्कृत बिकास् ऐ वाण्ट् अण्डर्स्टाण्ड् द मीनिङ्ग् आफ़् श्लोकास्
हियर् बिकास् विल् नाट् कम् हियर् बिकास् दट्स् अ डिफरेंट
वन् नो अहं Then I am saying this way, aham slokam artva, samskrita slokam artva, sloka samskritam patami. Correct?
So you are saying in English that you are studying Sanskrit because?
To understand, no because, to understand the meaning of slokas, samskrita slokas.
But there is still a reason behind it, to understand.
Yes.
So yes, the bhava, there is that bhava that you want to understand. So if then we will do is that artham jnatum sanskritam pathami. Because you want to for the purpose. For the purpose of it. That's the last column. अहं पठितुं पाठशालां गच्छामि सो वी केन् डू देट् एस् वेल् देर् इस् 15 मिनट्स् नाट् इनफ् टैम् टु प्राक्टिस् बट् यू केन् आल्वेस् ऐ विल् सेण्ड् दिस् स्लैड्स् दिस् and you can always practice lots of sentences for that for that as well so we have already done this so let's do few sentences with that as well and then we can give a lot as a homework rather than doing it here so now you've already seen that aham pathitum अहं क्रीडितुम् अहं लेखितुम् अहं खादितुं मेलितुं पठितुं भवितुं लेखितुं खादितुं मेलितुं सो देर् इस् अ पर्पस् बिहैण्ड् इट् वाट् एवर् एक्षन् यु आर् डूयिङ्ग् अहं लेखितुं लेखनीं स्वीकरोमि टु रैट् ऐ एक्सेप्ट् द पेन् लेखितुम् अहं खादितुं पाकशालां गच्छामि अहं मित्रं मेलितुम् अहं बान्धवान् मेलितुम् अहं पुत्रीं मेलितुम् अहं मातां मेलितुं गच्छामि अहं वैद्यां भवितुं कठोरपरिश्रम करोमि to become a doctor I am doing hard work kathor parishram karomi aur karishyami that I will do or I am doing aham kriditum udhyanam gachhami aham अहं स्मर्तुं श्लोकान् वारं पठामि अहं श्लोकान् स्मर्तुं पुनः पठामि अहं उच्चैर्वक्तुं माइक ध्वनि प्रसारण यंत्रम उच्चै वक्तुम ध्वनि प्रसारण यंत्रम प्रयोगम करोमि सो टू शाउट टू स्पीक लाउडली आई यूज द माइक अहम हसितुम हसितुम् एकं धारावाहिक पश्यामि एनीथिङ्ग् यू केन् से नौ लेट्स् मेक् ओन्ली वन् सेण्टेन्स् ईच् एण्ड् ऐ केन् स्टार्ट् फ्रोम् रामस्वामी महोदय दिस् टैम्
अहं Vatrum, is that first to speak?
You see the meaning here as well? Speak. Okay, welcome back.
Aham Sanskritam Vatrum Padami.
Very good. Uttamam. Next, Aparna Bhagini.
Aham phalam anetum apanikam gachhami.
Very good. Aham phalam anetum. Anetum apanam. Apanam. और आपनिकम् अपि सम्यक् अस्ति आपनकम् आपणं गच्छामि देन् कृष्णन् महोदय
अहं मन्दिरं गतुं देवदर्शनं पश्यामि
अहं
मन्दिरं देवालयं गन्तुं देवदर्शनं पश्यामि
देवदर्शनं पश्यामि नेक्स्ट् अमित् महोदय
अहं मातापिता मेलितुं भारतनगरे गच्छामि
भारतदेशं गच्छामि अहं मेलितुं गच्छामि अहं खादितुं गच्छामि अहं पतितुं न सम्यक् बालकः पतितुं कार्यं न करोति. अस्तु. Now what we can do is just read this column only so that we get used to of the words. Just we can say let's start with Krishnan Mohde this time. Krishnan Mohde, just the column.
Yes madam.
Patati patatum kridati kriditum
kridati kriditum.
No, kriditum janena patatu mohde kridati kriditum
kriditum bhavati bhavitum vasti asti bhavitum likati likitum lekitum kadati kaditum milati melitum hasati hasitum.
Very good.
Nindati ninditum padati 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 paditum nayati netum anayati anitum anetum
anetum
anetum vadati vaktum smarati smartum gacchati gattum
gantum
gantum agacchati agantum agantum icchati eshtam
eshtum
eshtum eshtum avuttishtati
uttatum
pibati patum.
Very good. So tyajati
tyajati tyaktum pashyati drishtum upavishyati upaveshtum dadati dadatum
dadati
dadatum prashyati prashtum kridati
krinati
kretum janati jnatum nidati nidatum
nidratum
nidratum slide next
karoti
repeat dadati okay from
karoti.
Karoti kartum karoti kartum swikaroti swikartum swikartum
shronoti
shroti shrotum grahati
grahanati
grihitum rodati roditum shakroti shaktum
shaknoti
shakroti shaktum pujayati pujayatum preshyati preshyitum
preshayitum
preshyitum prakshalayati prakshalayitum
sthapayati
sthayitum
sthapayitum
स्थापयति स्थापयितुं सूचयति सूचयितुं दर्जयति दर्जयति दर्जयितुं
तर्जयति तर्जयितुं
दर्जयितुं
तर्जयितुं
दर्जयितुं.
Okay, so next, anybody want to read or shall we do that? It is a good practice though. So, and Aparna Bhagini, can you read very quickly? So,
okay. Pathati, pathitum. Kridati, kriditum. Bhavati, bhavitum. Asti, bhavitum. Likhati, lekhitum. Khadati, khaditum. मिलति मेलितुं हसति हसितुं निन्दति निन्दितुं पतति पतितुं नयति नेतुम् आनयति आनेतुं वदति वक्तुं स्मरति स्मर्तुं गच्छति गन्तुम् आगच्छति आगन्तुम् इच्छति एष्टुम् उत्तिष्ठति उत्थातुं पिबति पातुं पश्यति द्रष्टुम् उपविशति उपवेष्टुम् ददाति दातुम् पृच्छति पृष्टम् पृष्टुम् प्रष्टुम् क्रीणाति क्रेतुम् जानाति ज्ञातुम् निद्राति निद्रातुम् करोति स्वीकर्तुम्
श्रुणोति करोति कर्तुम् स्वीकरोति
करोति कर्तुम् स्वीकरोति स्वीकर्तुम् स्वीकर्तुम् श्रुणोति श्रोतुम् गृह्णाति गृहीतुम् रोदिति रोदितुं शक्नोति शक्तुं पूजयति पूजयितुं प्रक्षालयति प्रक्षालयितुं स्थापयति स्थापयितुं सूचयति सूचयितुं तर्जयति तर्जयितुं आह्वयति आह्वातुम्
आह्वातुम्
आह्वातुम्.
ओके, सो नौ let me say a few kriyapadams before with you will not look into this. So arpayati, anyone? You can unmute.
Arpayitum.
Arpayitum. Hasati.
Hasitum.
निर्माति निर्माति
निर्मातुं
देन् लेधि lady, do you know the meaning?
Yeah, lik. Leditum.
Lady, leitum.
Leki, leitum.
Leitum. Then, dhavati.
Dhavatum.
Dhavitum.
Dhavatum. Dhavatum.
Japati.
जपितुं
जेति
जेयतुं
जेतुं
जेतुं पश्यति
पश्यतुं
एनीवन एल्स
पश्यतु
द्रष्टुं पश्यति द्रष्टुं अस अ डिफरेंट वन गच्छति
गच्छतुं
गन्तुं गच्छति गन्तुं पश्यति द्रष्टुं इच्छति
इच्छतुम्
इष्टुम्
Eshtum. We've just read that. Eshtum. I think we've read that here. Eshtum. Eshtum. Pibati.
Patum.
Very good. Pibati. Patum. So practice that. Write about 50 sentences using Tva and Tum. Tva, Tum. Using both the both of these kriya padams, and you can mix all that with the two kriya padams in one sentence, like mata patum gachati, mata pitva agachati, balakah gantum avyati, balakah agatya upavishyati. Right, okay, make about 50 sentences and please do send it to me as well, and I promise to send the slides. You do your job and I'll do my job.
Okay, Bhagini, okay. I'll be missing question, next week, madam. Saturday. I'll not be coming for the class.
Okay.
What are the Lakara names for the last two, madam?
That's not Lakara, huh? That is a... what's it called? Kridanta. These are not Lakara.
The last two are not Lakara, so.
No.
Okay.
So, Aparna Bhagini, next time you are not coming, or you are not coming in future?
I'll miss the class.
Just next week or in future?
Only next week. Ganesh Chaturthi, no, that's right.
Oh, okay. And also, today is 15 August.
Yeah.
So, congratulations to all of you.
And you also.
Yeah, thank you. Dhanyavada. So, even though I live in UK, my mother, my heart is there in Bharat. So, everyone, like Amit Mode also said that... He mel mata pita melitum saha bharatam desham gacchati. So same for me. Okay, let's finish with the shanti mantra uktva samapyamaha. Om sahina bhavatu sahino bhunatu sahaviryam karvavahe tejasvinavadhitamastu mavidvishavahe. Om shanti shanti shanti. Dhanyavadah.
धन्यवाद
धन्यवाद.